नमस्सर्वेभ्यः। अद्य छन्दोवर्गस्य तृतीयः पाठः। अस्मिन् पाठे वयं गणानां विषये जानीमः। पूर्वतनवर्गे वयं छन्दशास्त्रस्य पारिभाषिकपदानि ज्ञातवन्तः। पादः अक्षरं, तत्र लघु गुरु विभागः, मात्रा इति सर्वं ज्ञातवन्तः। केषुचित् वृत्तेषु अक्षराणां गणना भवति, केषुचित् वृत्तेषु मात्राणां गणना भवति। तत्र अक्षरवृत्तानि, यत्र अक्षरस्य गणना भवति तत्र गणविभागः ज्ञातव्यः। अष्टगणाः भवन्ति, ते के भवन्ति, तेषाम् अभिज्ञानं कथम् इति अस्मिन् पाठे वयं जानीमः। तत्र गणः इत्युक्ते किम् इति चेत्, अक्षरत्रयस्य समूहः गणः इति कथ्यते। यदा लघु गुरु इत्यादि चिह्नं कुर्मः, तदनन्तरं त्रयाणां त्रयाणाम् अक्षराणाम् एकैकं समूहं कुर्मः, सः समूहः गणः इति कथ्यते। अक्षरत्रयस्य समूहः एव गणः। अष्टविधाः गणाः सन्ति, य र त न भ ज स म इति गणाः। तत्र यगणः नाम कः? लघु गुरु गुरु। सो त्रीणि अक्षराणि भवन्ति गणे, तत्र लघु गुरु गुरु इत्यस्ति चेत् सः गणः यगणः इति कथ्यते। यथा विमानम् इति एकं पदं पश्यामः, विमानम् इति पदम् अस्ति, तत्र वि इति लघु, मा इति गुरु, नम् इति गुरु, लघु गुरु गुरु। सो अस्य यगणः इति नाम, त्रयाणां गणानां समूहः यगणः इति कथ्यते। एवमेव रगणः इति अस्ति, रगणः नाम कः? गुरु लघु गुरु अस्ति चेत् रगणः। गुरु गुरु लघु अस्ति चेत् तगणः। सर्वाणि अक्षराणि लघूनि भवन्ति चेत्, लघु 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 अस्ति चेत् नगणः। गुरु लघु लघु अस्ति चेत् भगणः। लघु गुरु लघु अस्ति चेत् जगणः। लघु लघु गुरु अस्ति चेत् सगणः। गुरु गुरु गुरु, सर्वाणि अक्षराणि गुरूणि सन्ति चेत् मगणः इति गणानां प्रस्तारः। कथमस्य स्मरणं भवति? अत्र पश्यन्तु, एवं जानीमः। प्रथमलघुः, द्वितीयलघुः, तृतीयलघुः, अन्यत् सर्वं गुरु। यगणः आदिलघुः, आदौ लघु, अन्यत् गुरु। रगणः मध्यलघुः, तगणः अन्त्यलघुः। यरत, यरत, य आदौ लघु, र मध्ये लघु, त अन्त्ये लघु। एवमेव भ ज स इत्यत्र पश्यामः चेत्, भ इति आदि गुरुः, ज इति मध्यगुरुः, स इति अन्त्यगुरुः। भ ज स आदि मध्य अन्त्ये गुरुः भवति। सर्वलघुः नगणः, सर्वगुरुः मगणः भवति। अष्टौ एव गणाः सम्भवन्ति, अन्यस्य कस्यापि गणस्य सम्भवः एव नास्ति। यत्र त्रीणि अक्षराणि भवन्ति तत्र भेदद्वयं, लघु अथवा गुरु, तत्र आङ्ग्लभाषायां पर्म्युटेशन् इति कथ्यते। तत्र लघु गुरूणां त्रयाणां वयं विन्यासं कुर्मः चेत् अष्टौ एव सम्भवाः सन्ति, ते एव गणाः इति कथ्यन्ते। एतेषां गणानां स्मरणं कथं कुर्मः इत्यत्र उपायद्वयम् अस्ति। प्रथमः भवति
एकः श्लोकः श्लोकः कथयति आदिमध्यावसानेषु यरता यान्ति लाघवम् भजसा गौरवम् यान्ति मनौ तु गुरुलाघवम् इयं कारिका कण्ठस्थीकरणीया बहु सरलम् किं वदति यरताः यरतगणाः यरतगणाः लाघवम् यान्ति लाघवम् नाम लघु अक्षरम् कुत्र आदि मध्य अवसानेषु अर्थात् यगणस्य आदौ लघु भवति सो यगणः इत्युक्ते आदौ लघुः अन्यद्वयं गुरु रगणः मध्ये लघुः लघु आदौ अन्ते च गुरुः तगणः अन्ते लघुः आदौ द्वयं गुरुः आदिमध्यावसानेषु यरता यान्ति लाघवम् भजसा गौरवम् यान्ति भजस गणाः गौरवम् नाम गुरु अक्षरम् प्राप्नुवन्ति आदौ गुरुः अन्यद्वयम् लघुः चेत् भगणः मध्यगुरुः अन्यद्वयम् लघु चेत् जगणः अन्त्यगुरुः आदौ लघुद्वयम् चेत् सगणः एवम् भजसा गौरवम् यान्ति मनौ तु गुरुलाघवम् म न इति गणद्वयम् मगणः सर्वगुरुः सर्वत्र गुरुः नगणः सर्वलघुः मनौ तु गुरुलाघवम् अतः यरता भजस एतावत् स्मर्यते चेत् यरता इत्यत्र आदौ मध्ये अन्ते लघु भजसा इत्यत्र आदौ मध्ये अन्ते गुरु मनौ तु गुरुलाघवम् इति एकः श्लोकः एतं श्लोकं जानीमः चेत् सुलभतया कस्य गणस्य कः प्रस्तारः इति वक्तुं शक्यते द्वितीयः एकः उपायः अस्ति यमाता राजभानसलगम् इति एकं वाक्यम् एतद् वाक्यं स्मर्तव्यम् वाक्यस्य कोऽपि अर्थः नास्ति यमाता राजभानसलगम् इति तत्र गणाः सन्ति य म त र ज भ न स ल गम् ल इति लघुः गम् इति गुरुः तत्र वयम् आदौ अस्य लघुगुरुप्रस्तारं कुर्मः य इति ह्रस्वस्वरः अतः लघु भवति य लघु मा दीर्घः गुरुः ता गुरु रा गुरु ज लघु भा गुरु न लघु स लघु ल लघु गम् इति अनुस्वारः अस्ति अतः गुरु एतत् कृतं वा इदानीं यं कमपि वर्णं पश्यामः यथा य इत्यस्ति सो ततः त्रीणि अक्षराणि स्वीकुर्मः यमाता इति लघु गुरु गुरु अयं गणः यगणः प्रथम अक्षरम् यत्र कुत्रापि वयम् अक्षरत्रयं स्वीकुर्मः तत्र प्रथमः यः वर्णः सः गणः एव भवति यथा जभान इति अक्षरत्रयं स्वीकुर्मः तत्र जगणः जगणः कः लघु गुरु लघु भजस यान्ति गौरवम् मध्यगुरुः जगणः एवम् यत्र कुत्रापि वयम् अक्षरत्रयम् स्वीकुर्मः ताराज इत्यस्ति तगणः आदौ अस्ति तगणः कः गुरु गुरु लघु यरता यान्ति लाघवम् यरत तगणः अन्त्यलघुः तगणः एवम् नगणः कः न स ल सर्वलघुः त्रयमपि लघु भवति चेत् नगणः सर्वत्रापि तथैव एवम् अस्य यमाता राजभानसलगम् इति पङ्क्तिम् स्मृत्वा अपि वयम् गणान् ज्ञातुम् शक्नुमः अत्र एकम् अभ्यासम् कुर्मः पङ्क्तिद्वयम् अस्ति एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः.
अत्र कथं लघु गुरु प्रस्तारः, कथं तत्र गणविभागः इति पश्यामः. आदौ ए इत्यस्ति दीर्घः गुरुः, को गुरुः, हि ह्रस्वः अग्रे संयोगः नास्ति अतः लघुः, दो शो गु ह्रस्वः लघुः, न इति लघुः, सन् इति स ह्रस्वः किन्तु अग्रे नि इति संयोगः अस्ति अतः गुरुः, नि इति लघुः, पा ते, नि ह्रस्वः लघुः, म ह्रस्वः अग्रे संयोगः अस्ति अतः गुरुः, ज लघुः, ती गुरुः, न्दोः, कि र ने दीर्घः, श्वि ह्रस्वः, वा दीर्घः, कः तत्र विसर्गः अस्ति. अयं लघु गुरु प्रस्तारः. अग्रे किं क्रियते? अक्षरत्रयस्य समूहः, एकं द्वे त्रीणि, एवम् एका रेखा लिख्यते, पुनः एकं द्वे त्रीणि, अत्र एका रेखा, एकं द्वे त्रीणि, एका रेखा. अत्र त्रयः गणाः सन्ति, अन्ते गुरुद्वयं. गणः नास्ति, गुरुद्वयम् अस्ति. अत्रापि एकं द्वे त्रीणि, अत्र एकः प्रथमः गणः, एकं द्वे त्रीणि द्वितीयः गणः, एकं द्वे त्रीणि इति तृतीयः गणः, अन्ते गुरुद्वयम् अस्ति. एवं गणविभागः कृतः. इदानीं गणस्य नाम लेखनीयम्. अयं कः गणः? गुरु, गुरु, लघु, अन्त्यलघुः. तत् स्मरामः, यरत इति आदिलघु, मध्यलघु, अन्त्यलघु. भजस आदिगुरु, अन्त्य मध्यगुरु, अन्त्यगुरु. मनौ तु गुरुलाघवम्, मकारः नकारः. मकारः सर्वगुरुः, नकारः सर्वलघुः. इदानीम् अन्ते लघुः, अन्त्यलघुः तगणः, अतः त इति लेखनीयम्. अत्र पुनः गुरु, गुरु, लघु समानः गणः, अयमपि तगणः. लघु गुरु लघु, मध्ये गुरुः अस्ति. मध्यगुरुः सः, मध्यगुरुः कः? भजस. तत्र मध्यगुरुः जगणः, ज. त त ज. अत्र एकः गुरुः, गुरोः ग इति लिख्यते, पुनः ग. त त ज गणाः गुरुः, गुरुः. अस्मिन् पादे पश्यन्ति चेत् समानमस्ति. एक एव वर्णः तत्र भिद्यते. आदौ अत्र गुरुः अस्ति, अत्र लघुः अस्ति. मध्यगुरुः, मध्यगुरुः जगणः. ज अन्त्यलघुः तगणः. मध्यगुरुः जगणः. ग ग गुरुद्वयम्. एवञ्च प्रथमपादे त त ज गणाः गुरुद्वयम् अस्ति. द्वितीयपादे ज त ज गणाः गुरुद्वयम् अस्ति. एवं सर्वेषु श्लोकेषु वृत्तं ज्ञातुम् आदौ लघु गुरु प्रस्तारं विलिख्य तत्र गणविभागं कृत्वा के के गणाः सन्ति इति द्रष्टव्यं भवति. अस्मिन् पाठे वयम् अक्षरवृत्तेषु अष्ट गणाः भवन्ति इति ज्ञातवन्तः. यरत, भजस, म, न इति अष्टौ गणाः. गणस्य प्रस्तारः, लघु गुरु क्रमः भवति. कथं सः क्रमः ज्ञायते इत्यत्र उपायद्वयं ज्ञातवन्तः.
यमाता राजभानसलगम् इति वाक्यमस्ति. तत्र लघु गुरु कृत्वा ततः गणाः ज्ञातुं शक्यन्ते. अथवा आदिमध्यावसानेषु यरता यान्ति लाघवम्, भजसा गौरवम् यान्ति, मनौतु गुरुलाघवम् इति कारिका. कारिकया किमुच्यते, यरताः आदिमध्यावसानेषु लाघवम्, आदौ लघु यगणः, मध्ये लघुः रगणः, अन्त्ये लघुः तगणः, एवमेव आदौ गुरुः भगणः, मध्ये गुरुः जगणः, अन्ते गुरुः सगणः, मनौ तु गुरुलाघवं मगणः सर्वगुरुः, नगणः सर्वलघुः. एवं कः गणः इति ज्ञातुं शक्यते. अभ्यासपत्रे बह्व्यः पङ्क्तयः दीयन्ते श्लोकेभ्यः. तत्र प्रस्तारं विलिख्य गणविभागस्य अभ्यासं कुर्वन्तु.